यसअ रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड गत सोमवासरे दिवा काष्ठमण्डपस्य गोङ्गबु स्थाने भूताया घटनाया गभीरेण अनुसन्धानाय सुरक्षाङ्गानाम् प्रमुखान् निर्दिशति। सिम्बा प्रासाद स्थिते प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य प्रधानमन्त्री प्रचण्ड घटनाम् गभीरेण अनुसन्धातुम् अन्यायम् प्राप्तेभ्य सर्वेभ्यो जनेभ्य समुचित न्याय प्राप्तित्वेन दण्डन प्रक्रियाम् चालयितुम् च निर्दिशत। विमर्शने नेपाल प्रहरिण सशस्त्र प्रहरी बलस्य राष्ट्रिय अनुसन्धान विभागस्य च प्रमुखा बसविश्रान्ति क्षेत्रे ईषद विवाद सन्नपि एतादृशी अप्रिय घटना सम्भवेत् इति आत्मभिः पूर्वम् नानुमितमिति अवोचन्। विमर्शने इमे घटनायां त्रयस्त्रिंशत् प्रहरिण आहता शान्ति सुरक्षयोः स्थितिम् पूर्वम् अनुमातुम् न शक्तम्। प्रहरिणः सावधानतायाः कारणेन मानवीय क्षतिर्न भूता विवादस्य मध्यकाले एव अवलुण्ठक समूहेन लाभो गृहीता इति प्रारम्भिकानुसन्धानेन दर्शितम् चेति सार संक्षेपम् प्रास्तुवन्। विमर्शनस्य क्रमे इमे घटनाम् अनुसन्धातुम् नेपाल प्रहरिण वरिष्ठ प्रहरीपरीक्षकस्य नेतृत्वे समितिः संघटितास्तीति च अज्ञापयन्। काष्ठमण्डपस्य बालाजुस्थिते माछापोखरी स्थाने गत सोमवासरे भीते ध्वंसने संलग्नाः षड्जनाः प्रहरिणा सार्वजनीकृताः सन्ति। काष्ठमण्डप जनपद प्रहरी परिसरेण पूर्वेद्युः पत्रकार सम्मेलनम् आयोज्य माछापोखरी स्थाने प्रहरिणो यानस्य प्रहरी सुरक्षा प्रशाखायाः यातायात द्वीपाकारक स्थलस्य ध्वंसन पूर्वकम् अग्निदाह कर्मणि संलग्नाः षड्जनाः निगृह्य सार्वजनीकृताः सन्ति। निगृहितान् षड्जनान् लक्ष्यीकृत्य चतुस्सप्तत्यधिक द्विसहस्रतम विक्रम वर्षीया राज्यापराध संहितायाः षड्विंशत्य परिच्छेदस्य पञ्चाशीत्यधिक द्विशततमस्य प्रकरणस्य अनुसारेण आपराधिकोपद्रव निषेधनापराध सम्बद्धम् न्यायिक प्रकरणम् पञ्जीकृत्य काष्ठमण्डप जनपद न्यायालयात् दिवसत्रयस्य अवधिम् प्रवर्ध्य अनुसन्धीयमानमस्तीति प्रहरी ज्ञापयति। घटनायाम् संलग्नाः अन्याः दश व्यक्तिः निगृह्य प्रश्नोत्तराणानुसन्धान कार्यम् च विद्यमानमस्तीति प्रहरिणा पत्रकार सम्मेलने ज्ञापितम् वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति राष्ट्रिय मानवाधिकार आयोगः संस्थागतेन संरचनागतेन च रूपेण सुदृढीक्रियते। सिम्बा प्रसाद वर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य आयोगस्य पदाधिकारीभिः भीते मेलने प्रधानमन्त्री दाहाल आयोगम् सुदृढीकर्तुम् आत्मनः प्रयासोऽस्तीति प्रत्यपादयत्। लोकतन्त्रस्य लोकतान्त्रिक प्रणाल्याश्च सुदृढीकरणाय आत्मनः गभीरता स्थिति ज्ञापयन् प्रधानमन्त्री दाहाल अवोचत् आयोगस्य सप्तानामेव प्रदेशानाम् संरचनानामपि सुदृढीकरणेन लोकतन्त्रस्य विदेहे राज्यस्य जनतायाः मानवाधिकाराणाञ्च संरक्षणम् प्रवर्धनम् च विधेयम्। मेलने आयोगस्य पदाधिकारिभिः संघीय संरचनायाः अनुसारेण आयोगस्य पुनः संरचना आवश्यकी साधन स्रोतसाम् पर्याप्त आर्थिक सहयोगस्य च कृते सहयोगश्च अपेक्षितो वर्तते इति च ज्ञापयित्वा आयोगाय आवश्यकानाम् अधिनियमानाम् नियमावल्याश्च निर्माणम् प्राथमिकतायाम् संस्थापयितुम् प्रधानमन्त्री अनुरुद्धः आसीत्। प्रतिनिधि सभाया गतदिवसीयोपवेशे एतद् विक्रम वर्षीयम् सम्पत्ति शुद्धिकरण निवारण व्यावसायिक वातावरण प्रवर्धन सम्बद्धानाम् कतिचित् अधिनियमानाम् संशोधकम् विधेयकम् प्रस्तुतम् वर्तते। उपवेशे विधि न्याय संसदीय विषय मन्त्री ध्रुवबहादुर प्रधान आर्थिकापराधानाम् सततम् वर्धनस्य राष्ट्राधन पलायनस्य राजस्व वञ्चन कार्यस्य च विरूद्धे दण्ड चालनाय आवश्यकतायाश्च हेतोः प्रस्तावः प्रस्तुतः इति अतर्कयत। तत्पूर्वं विशेष समये सत्तापक्षस्य सांसदाः यान दुर्घटनायाः कारणेन असमये मरणावस्था सृष्टा सर्वकारीय चिकित्सालयेषु चिकित्सकानाम् अभावो जातः स्वास्थ्य सुरक्षण कोषः प्रभावकारी विधातव्यश्चेति विषयेषु धारणाम् उपस्थापयन् एवमेव प्रतिपक्षस्य सांसदः समस्याभिः देशः पूर्णताम् गतः एतत् समाधातुम् संसदः प्रभावकारी रूपेण अग्रे वर्धनम् आवश्यकम् दृष्टम् शिक्षायाः स्वास्थ्योपचारस्य च सहजीकरणम् विधातव्यम् चेति विषयेषु सर्वकारस्य ध्यानम् आकर्षयन् उपवेशे सांसदाः संविधान क्रियान्वयनस्य अष्टसु वर्षेषु व्यतीतेषु सत्स्वपि संविधानानुसारेण नागरिकताधिनियमस्य संशोधनाभावात् लक्षषड्कादपि अधिकाः नागरिकाः नागरिकता विहीनावस्थाम प्राप्ताहै इति चर्चयन्ता लालायोगस्य प्रतिवेदनस्य सार्वजनिकरणाय सदनस्य माध्यमात् सर्वकारस्य ध्यानाकर्षणम् अकारयन्। उपवेश प्रारभणस्य अनुपदमेव सांसदाः संविधानवादस्य रक्षायाः विदेश शासनस्य सर्वोच्च न्यायालयाय पूर्णता प्रदानस्य नवीन बसयान विश्रान्ति स्थले भूतायाः घटनायाः सार्वजनिकावकाशस्य राष्ट्रपतेः गमनागमनावधौ मार्गेषु सर्वसाधारणजनैः षोडव्यस्य दुःखस्य च विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः अपरोपवेशः अस्यैव फाल्गुनस्य दशमे दिवसे दिवा एकवादने वस्ता। राष्ट्रपतिः विद्यादेवी भण्डारी निगदति आयुर्वेदः न केवलं पौरस्त्य सभ्यतायाः अपितु आसंसारं संयुक्त सम्पत्तिः वर्तते। नेपाल संस्कृत विश्वविद्यालयस्य शिक्षण चिकित्सालयस्य नवनिर्मितं भवनं ह्य दाङ जनपदे उद्घाटयन्ती राष्ट्रपतिः भण्डारी अस्माकं मौलिक स्वास्थ्य पद्धतेः रूपेण स्थितानाम् आयुर्वेद योग प्राणायाम ध्यान प्राकृतिक चिकित्सानां जनजाति समुदायेषु स्थितस्य शारीरिक मानस स्वास्थ्येन सम्बद्धस्य परम विलोप्यमानस्य ज्ञानस्य च अन्वेषणाय अनुसन्धानाय च नेपाल संस्कृत विश्वविद्यालयेन क्रियाशीलेन भाव्यमिति प्रत्यपादयत। प्राचीन युगस्य मध्यकालीन युगस्य ग्रन्थाः संस्कृत भाषायां लिखिताः सन्तीति चर्चयन्ती राष्ट्रपतिः भण्डारी न केवलं हिन्दूनाम् अपितु बौद्धानां जैनानां च संस्कृत भाषायां लिखितैः संस्कार ग्रन्थैः आसंसारं ज्ञानस्य प्रभावः प्रसार्यमाणो वर्तते इति प्रत्यपादयत। कार्यक्रमे संचार सूचना प्रविधि मन्त्री रेखा शर्मा अवोचत नेपाल संस्कृत विश्वविद्यालयः पौरस्त्य दर्शनस्य अध्ययनस्य केन्द्रस्य रूपेण विकसनीयः। कार्यक्रमे लुम्बिनी प्रदेशस्य स्वास्थ्य मन्त्री विष्णुपन्थी आयुर्वेद शिक्षण चिकित्सालयस्य सञ्चालनाय प्रदेश सर्वकारः समन्वयार्थं तत्परोऽस्तीति प्रतिबद्धतां व्यक्तवान्। कार्यक्रमे नेपाल संस्कृत विश्वविद्यालयस्य उपकुलपतिना शिक्षाध्यक्षेण सचिवेन च विश्वविद्यालयस्य विषये राष्ट्रपतिः ज्ञापितः आसीत्। उपराष्ट्रपति नन्दबहादुर पुन गदति नेपाली समाजस्य रूपान्तरणाय चलचित्र क्षेत्रेण निरूढा भूमिका महत्वपूर्णा वर्तते। काष्ठमण्डपे ह्य आयोजिते कार्यक्रमे उपराष्ट्रपति पुन चलचित्रम मानवजीवनस्य अभिन्नम अंगम सम्भूतम अस्तीति प्रत्यपादयत। भाषा संस्कार संस्कृति गीत संगीत कला साहित्यानां संरक्षणं विकासश्च चलचित्र क्षेत्रेण विधीयमाने स्तः इति चर्चयन् उपराष्ट्रपतिः पुन देशभक्तेः भावनां वर्धयितुं राष्ट्रियैकतां प्रवर्धयितुं भौगोलिकीम् अखण्डतां रक्षितुं च चलचित्र क्षेत्रेण योगदानं प्रदीयमानम् अस्तीति प्रत्यपादयत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा भासते स्वदेश्युत्पादनानि वर्धमानानि सन्त्यपि तेषां पूर्णतया आपणीकरणम् अधुनापि सम्भूतं नास्ति। गार्हस्थ्य लघुद्योग महासंघस्य दाङ शाखाया आयोजनायां घोराईस्थाने ह्य प्रारब्धां लुम्बिनी प्रदेशस्तरीय लघु गार्हस्थ्योद्योग पर्यटन कृषि प्रदर्शनीम् उद्घाटयन्ती संचार मन्त्री शर्मा स्थानीय कृष्युत्पादनं प्रवर्धमानं सदपि आपणीकरणस्य व्यवस्थापनस्य भावेन लघुद्यमिनः पीडिताः वर्तन्ते इति प्रत्यपादयत्। पशुपति क्षेत्र विकास कोषेण महाशिवरात्रे पर्वण सम्पूर्ण पूर्व कार्याणि प्रपूरितानि सन्तीति ज्ञापितं वर्तते। कोषेण ह्य पत्रकार सम्मेलनम् आयोज्य फाल्गुनस्य षष्ठ दिवसस्य शनिश्चरवासरस्य महाशिवरात्रि पर्वण सम्पूर्ण पूर्व कार्याणि प्रपूरितानि सन्तीति अज्ञापयत। पत्रकार सम्मेलने कोषस्य कार्यकारी निर्देशक डाक्टर घनश्याम खतिवडा शिवरात्रि पर्वण अवसरे जगद्गुरूणा शंकराचार्येण श्री निश्चलानन्द सरस्वती स्वामिना सह आसन्न पञ्च सहस्राणि सन्त महन्त स्वामिनः पशुपति मन्दिरं प्राप्नुवन्तीति अज्ञापयत्।